इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोदीरितं यत् आयव्ययपत्रकं पञ्चविंशत्युत्तरद्विसहस्रतः षड्विंशतिसत्रम् देशस्य चत्वारिंशदधिकैकशतकोटि भारतीयानाम् आकांक्षाणां प्रपूर्तेः आश्वासनं प्रदर्शयति। आयव्ययपत्रकात् परं सन्देशपुटके तेन प्रोक्तं यत् एषा भारतस्य प्रगतौ महत्वपूर्णा विकासयात्रा भविष्यति। श्रीमोदी उक्तवान् यत् एतत् आयव्ययपत्रकं प्रत्येकं भारतीयस्य स्वप्नान् प्रपूरयिष्यति। श्रीमोदी एतदपि उक्तवान् यत् आयव्ययपत्रकेण देशस्य मध्यवर्तिनः जनाः लाभान्विताः भविष्यन्ति। द्वादशलक्षरूप्यकाणि यावत् आयवन्तः जनाः करात् बहिः सन्ति। अनेन कृषिक्षेत्रं ग्रामीणार्थव्यवस्था इत्यादयः च सशक्ताः भविष्यन्ति। वित्तमन्त्री निर्मलासीतारामन् ह्यः एनडीए इत्येतस्य प्रशासनस्य प्रथमं पूर्णवित्तसङ्कल्पनापत्रम् उपस्थापितवती। लोकसभायां वित्तमन्त्रिणा उद्घोषितं यत् अधुना द्वादशलक्षरूप्यकाणि आयपर्यन्तं करस्तरः न्यूनं भविष्यति। एषा नूतनकरग्रहणव्यवस्थायां नूतन आयकरस्तरान् अपि प्रावर्तयत्। असौ उक्तवती यत् अनया नूतनसंरचनया मध्यमवर्गस्य करे न्यूनः भविष्यति, तेषां पार्श्वे अधिकं धनम् अवशिष्टं भविष्यति। वरिष्ठनागरिकेभ्यः ऋणवृद्धौ करव्यवसङ्कल्पनस्य सीमा 50,000 द्विगुणितं कृत्वा 1,00,000 यावत् कृता। वित्तमन्त्रिणा राज्यैः सह सहभागितायां कृषिक्षेत्राय एकः कार्यक्रमः प्रधानमन्त्री धनधान्यकृषियोजना इत्येषः उद्घोषितः। असौ उक्तवती यत् वर्तमानयोजनानाम् अभिसरणेन सह अयं कार्यक्रमः शतजनपदानां न्यूनोत्पादकता सस्यविविधीकरणं च व्याप्तं करिष्यति। वित्तमन्त्रिणा निर्मलासीतारामन् इत्यनया उद्घोषितं यत् 5,00,000 महिलानाम् अनुसूचितजातीनाम् अनुसूचितजनजातीनां च प्रथम उद्यमशीलेभ्यः एका नूतनयोजना आरप्स्यते। अनया योजनया आगामि 5 वर्षावधौ 2,00,000,000 रूप्यकाणि यावत् सावधि ऋणं प्रदास्यते। छत्तीसगढ़े ह्यः बीजापुरमण्डले सुरक्षाबलेन सह जाते संघर्षे 8 माओवादिनः मारिताः। आरक्षिबलानुसारी गंगनूरुक्षेत्रे मण्डल रिजर्व गार्ड CRPF इति केन्द्रीय रिजर्व पुलिस फोर्स इत्येतस्य विशिष्ट कमाण्डो बटालियन फॉर रिजोल्यूट एक्शन कोब्रा तथा विशिष्ट कार्यबलेत्यादीनां सुरक्षाबलानां संयुक्तदलेन प्राप्तसूचनानन्तरं माओवादिनः विरुद्धाभियानं प्रारब्धम्। पुरुषक्रिकेटक्रीडायाम् अद्य सायं मुम्बईनगरस्य वानखेड़े क्रीडांगणे पञ्चमे अन्तिमे च 20-20 अन्ताराष्ट्रियक्रीडायां भारतं इंग्लैण्डदलं सम्मुखीकरिष्यति। भारतीयमानकसमयानुसारी क्रीडायाः प्रसारणं सायं 7 वादने भविष्यति। प्रियाः श्रोतारः, संस्कृतजगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृतसाप्ताहिकीति विशिष्टकार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 11:30 भविष्यति। कृपया शृण्वन्तु इति वार्ताः।